एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली चीनदेशस्य राष्ट्रपतेः शी जिनफिङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां सांघाई सहयोग संघटन शिखर सम्मेलने भागं ग्रहीतुं परश्वः शनिवासरे नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय चीनदेशस्य भ्रमणाय गमिष्यति इति कार्यतालिका प्रकाशिता अस्ति। प्रधानमन्त्रिणा ओलिना चीनदेशस्य राष्ट्रपतिना शी इत्यनेन सह तियान्जिन स्थाने मेलवार्ता करिष्यते। प्रधानमन्त्री ओली सेप्टेम्बर मासस्य प्रथमे दिवसे तियान्जिन स्थाने आयोक्ष्यमाणं शिखर सम्मेलनं सम्बोधयिष्यति। तदवसरे प्रधानमन्त्री ओली शिखर सम्मेलने सहभागिभिः विश्वस्य नेतृभिश्च मेलवार्तां च करिष्यति इति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। एवमेव प्रधानमन्त्रिणा ओलिना सेप्टेम्बर मासस्य द्वितीय दिवसे बेजिङ नगरे चीन देशस्य उपराष्ट्रपतिना हान झेङ इत्यनेन सह मेलवार्ता करिष्यते। प्रधानमन्त्री ओली सेप्टेम्बर मासस्य तृतीय दिवसे बेजिङ नगरे आयोक्ष्यमाणे जापान देशस्य आक्रमणस्य विरूद्धे युद्धे विजयस्य अशीतितमस्य वार्षिकोत्सवस्य अवसरे आयोजिते स्मृति कार्यक्रमे सहभागी भविष्यति। प्रधानमन्त्रिणा ओलिना सह एतस्य पत्नी राधिका शाक्यः, शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः, संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्रीप्रसाद पाण्डे, अन्य नेतारः, उच्चस्तरीय सर्वकारीय अधिकारिणश्च सहभागिनो भविष्यन्ति इति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री ओली अस्यैव भाद्र मासस्य अष्टादशे दिवसे स्वदेशं प्रत्यागन्ता। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति प्रधानमन्त्रिणः चीन भ्रमणस्य क्रमे आयोक्ष्यमाणायां मेलवार्तायां नेपालस्य लिपुलेख लिम्पियाधुरा सीम समस्यायाः विषये वार्ता भविष्यति। मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्य सीम प्रासादे आयोजिते पत्रकार सम्मेलने संचार कर्मिणां जिज्ञासायां सर्वकारस्य प्रवक्ता च संचार मन्त्री गुरूङ अस्यैव भाद्रमासस्य चतुर्दश दिवसात् विधीयमानस्य प्रधानमन्त्रिणः चीन भ्रमणस्य क्रमे लिपुलेख लिम्पियाधुरा सीम समस्यायाः विषये च वार्ता भविष्यति इति असूचयत्। अत्रान्तरे भाद्रमासस्य नवमे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन सामाजिक सञ्जाल संचालकान् उत्तरदायिनो दायित्ववाहिनश्च विधातुं सप्तानां दिवसानां समयसीमानं निर्धार्य सूचीकर्तुं सार्वजनिकाह्वानाय निर्णीतमस्ति इति मन्त्री गुरूङ असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन नेपाल सर्वकारेण उद्घोषितानां विंशति संख्यातानां औद्योगिक ग्राम क्षेत्र विशेषार्थिक क्षेत्राणां राष्ट्रिय प्राथमिकतायाः आयोजनानां निर्धारणस्य निर्णयो विहितोऽस्ति इति मन्त्री गुरूङ असूचयत्। राष्ट्रिय सभा अन्तर्गतायां विधायन व्यवस्थापन समितौ संघीय सर्वकारीय सेवा विधेयके सहसचिव पदे प्रतिशतं दश पदेषु सार्वजनिक प्रतिस्पर्धया पदपूर्तिं विधातुं सहमतिर्धृता अस्ति। उपवेशे संघीय सर्वकारीय सेवा विधेयकस्य प्रकरणगत विमर्शनस्य क्रमे ह्य संघीय विषय सामान्य प्रशासन मन्त्रालयेन विधेयके प्रस्तुतस्य प्रस्तावस्य अनुसारेण सहसचिव पदे प्रतिशतं दश पदानां पदपूर्तिं सार्वजनिक प्रतिस्पर्धया विधातुं सहमतिर्धृता वर्तते। तत्र सहसचिव पदस्य कृते प्रतिस्पर्धायै कति वर्षाणाम् अनुभवस्य अनिवार्यता भविष्यति इति विषये अधुनावधि निर्णयः कृतो नास्ति। समित्या अनुबन्धन सेवायां कार्यरतानां कर्मचारिणां व्यवस्थापनं विधातुं नायब सुब्बा पदेऽपि सार्वजनिक प्रतिस्पर्धया कतिपय पदेषु पदपूर्तेः व्यवस्थायाः स्थापनस्य विषये अध्ययनं कृत्वा समितौ प्रतिवेदनं प्रस्तोतुं च मन्त्रालयः निर्दिष्टो वर्तते। समित्या प्रतिनिधिसभया पारितीकृतस्य विधेयकस्य प्रतिवेदने सहमतिं कर्तुं योग्य विषयेषु यथाशीघ्रं सहमतिं धृत्वा अवशिष्ट विषयेषु पुनः विमर्शनस्य अग्रेवर्धनत्वेन कार्यं विधीयमानमस्ति। वीरगंज महानगरपालिकायां समुदायस्तरे प्रसृतस्य विसूचिकायाः अतिसारस्य प्रकोपस्य नियन्त्रणं कर्तुम् अभियानं तीव्ररूपेण सञ्चाल्यमानं वर्तते। जनपद जनस्वास्थ्य संकट व्यवस्थापन समित्या ह्य सायं प्रकाशितायाः विज्ञप्तेः अनुसारेण ह्य सायं यावत् शतद्वयं सप्तपञ्चाशत् च विसूचिकायाः अतिसारस्य च संक्रमणेन ग्रस्ताः जनाः उपचारस्य पश्चात् स्वास्थ्यलाभं प्राप्य गृहं प्रति गताः सन्ति। अधुनापि एक सप्तत्यधिक शतद्वयं संक्रान्ताः जनाः उपचाररताः वर्तन्ते। एतेषु संक्रान्तेषु जनेषु द्वात्रिंशदधिक शते जनेषु विसूचिकायाः संक्रमणं पुष्टीभूतमस्तीति विज्ञप्तौ सूचितं वर्तते। अद्य ऋषिपञ्चमी पर्वणि हिन्दू महिलाः प्रातः कालिक नित्यक्रियां समाप्य गंगायां नद्यादौ हृदकूपतडागधारादिषु वा यत्य आचारानुसारेण अपामार्गखण्डानां षष्ट्युत्तर त्रिशतेन दन्तधावनं विधाय स्नान्ति। अस्मिन् पर्वणि दीपकलश गणेश पूजनपूर्वकं सारुन्धतिकाः कश्यपादि सप्तर्षयः पूज्यन्ते। दिवसेऽस्मिन् विभिन्नेषु ऋषिमन्दिरेषु ऋषीणां दर्शनपूजनार्थं महिलानाम् उपस्थितिः प्रवर्धते। लोकोपकारिणां महामनीषिणां ऋषीणां स्मरणं तदीय मार्गमनुसृत्य अग्रेवर्धनञ्च अस्य पर्वणः महत्वाधायक पक्षो वर्तते। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत भाषते सांविधानिक न्यायपीठस्य संघटने विवादः मतभेदश्च न विद्यते। यः प्रधान न्यायाधीशेन प्रकाशमान सिंह राउत इत्यनेन सहितानां वरिष्ठ न्यायाधीशानां सपना प्रधान मल्ल इत्यस्याः डॉ नहकुल सुवेदी इत्यस्य तिलप्रसाद श्रेष्ठस्य विनोद शर्मणस्य न्यायपीठं संघटितमस्ति। प्रधान न्यायाधीशेन राउत इत्यनेन सांविधानिकम् अधिकारं प्रयुज्य सांविधानिक न्यायपीठं संघटितमस्ति इति उक्तं वर्तते। कतिभिः समयैः अवरुद्धं सांविधानिक न्यायपीठं ह्यस्तनात् दिवसात् संचालितमस्ति। राज्य व्यवस्था सुशासन समितेः नवनिर्वाचिता सभापतिः ईश्वरी देवी नेउपाने पदगोपनीयतयो शपथं गृहीतवती अस्ति। सिंहप्रासादवर्तिनी संघीय संसद सचिवालये ह्यः आयोजिते कार्यक्रमे सभामुखस्य देवराज घिमिरे विदस्य समक्षं नवनिर्वाचिता सभापतिः नेउपाने शपथं अग्रहीत। समितेः सभापतिपदस्य कृते नेउपाने इत्यस्याः एव प्रत्याशिता आसीत् इत्यतः ह्यः एव नेउपाने निर्विरोधं निर्वाचिता आसीत्। कर्णाली राजमार्गः एकपक्षतः सञ्चालितोऽस्ति। कालीकोट जनपदस्य कालेखोला स्थाने दुरापन्नेन भूस्खलनेन भूक्षयग्रस्तस्य मार्गस्य पुनर्निर्माणानन्तरं ह्यस्तनात् दिवसात् एकपक्षतः सञ्चालनं विहितमस्ति इति जुम्ला जनपद मार्ग कार्यालयस्य प्रमुखः दीपेन्द्र कुमार चौधरी असूचयत्।